एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। एतन्मासस्य चतुर्थे दिवसे सम्पन्नस्य प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनस्य अन्तर्गतम् प्रतिनिधिसभायाः प्रत्यक्षपक्षे इदानीं यावत् सप्तोत्तरशतस्य स्थानानां परिणामः उद्घुष्टो वर्तते। एतदनुसारेण नेपाली कांग्रेस दलं सप्तत्रिंशति, नेकपा एमाले दलं चतुर्विंशत्यां, नेकपा माओवादी केन्द्रम एकादशसु, नेकपा एकीकृत समाजवादी दलं दशसु, राष्ट्रिय स्वतन्त्र दलं सप्तसु, राष्ट्रिय प्रजातन्त्र दलं पञ्चसु स्थानेषु च विजयं लब्धवन्ती वर्तन्ते। त्रयोदश स्थानेषु अन्यानि दलानि स्वतन्त्र प्रत्याशिनश्च विजयिनः संवृत्ताः सन्ति। मतगणनायाः परिणामः प्राप्यमाणो वर्तते। गोर्खा जनपदस्य द्वितीय निर्वाचन क्षेत्रात् नेपाल कम्युनिष्ट पार्टी माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड षड्विंशति सहस्राणि त्रित्तर शतम् च मतानि प्राप्य प्रतिनिधिसभाया सदस्यपदे निर्वाचितो वर्तते। प्रचण्डस्य निकटतम प्रतिस्पर्धी राष्ट्रिय स्वतन्त्र दलस्य कविन्द्र बुर्ला कोटी सप्त सहस्राणि त्रिनवत्युत्तर शतत्रयम् च मतानि प्राप्तवान् वर्तते। तनहु जनपदस्य प्रथम निर्वाचन क्षेत्रात् नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेल पञ्चविंशति सहस्राणि अष्टादशाधिक त्रिशतम् च मतानि लब्ध्वा प्रतिनिधिसभाया सदस्यपदे विजयी संवृत्तो वर्तते। पौडेलस्य निकटतम प्रतिस्पर्धी नेकपा एमाले दलस्य एकबहादुर राणा ऊनविंशति सहस्राणि त्रिचत्वारिंशदुत्तर नवशतम् च मतानि अलभत। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपाल रौतहट जनपदस्य प्रथम निर्वाचन क्षेत्रात् त्रयस्त्रिंशत् सहस्राणि द्वाविंशत्यधिक पञ्चशतम् च मतानि अवाप्य प्रतिनिधिसभाया सदस्यपदे विजयम् प्राप्तवान् वर्तते। नेपालस्य निकटतम प्रतिस्पर्धिना नेकपा एमाले दलस्य अजय कुमार गुप्ता विधेन षड्विंशति सहस्राणि द्वाविंशत्यधिक नवशतम् च मतानि प्राप्तानि सन्ति। नेपाली कांग्रेस दलस्य नेता शशांक कोइराला नवलपरासी बर्दाघाट सुस्ता पूर्व जनपदस्य प्रथम निर्वाचन क्षेत्रात् सप्तविंशति सहस्राणि षड्विंशत्यधिक शतम् च मतानि प्राप्य प्रतिनिधिसभाया सदस्यपदे विजयी सम्भूतो वर्तते। गठबन्धनस्य प्रत्याशिनः कोइराला विधस्य निकटतम प्रतिद्वन्दी नेकपा एमाले दलस्य कृष्णप्रसाद पौडेल पञ्चविंशति सहस्राणि चतुश्चत्वारिंशत् चतुश्चत्वारिंशत्तम् च मतानि लब्धवान् अस्ति। दाङ जनपदस्य द्वितीय निर्वाचन क्षेत्रात् प्रतिनिधिसभाया सदस्यपदे गठबन्धनस्य प्रत्याशिनी नेकपा माओवादी केन्द्रस्य रेखा शर्मा षड्विंशति सहस्राणि सप्तसप्तत्यधिकाष्ट शतम् च मतानि अवाप्य विजयिनी संवृत्ता वर्तते। शर्मण निकटतम प्रतिस्पर्धी नेकपा एमाले दलस्य शंकर पोखरेल षड्विंशति सहस्राणि एकाशीत्यधिक षट्शतम् च मतानि लब्धवान् वर्तते। चितवन जनपदस्य द्वितीय निर्वाचन क्षेत्रात् प्रतिनिधिसभाया सदस्यपदे अत्यधिक मतै स राष्ट्रिय स्वतन्त्र दलस्य अध्यक्ष रवि लामिछाने निर्वाचितो वर्तते। लामिछाने एकोन पञ्चाशत सहस्राणि एकषष्ट्यधिक शतद्वयम् च मतानि प्राप्य विजयी संवृत्तोऽस्ति। एतस्य निकटतम प्रतिस्पर्धिना लोकतान्त्रिक वाम गठबन्धनस्य उमेश श्रेष्ठेन पञ्चदश सहस्राणि एकोन शतम् च मतानि प्राप्तानि सन्ति। विजय प्राप्तेरनन्तरम् राष्ट्रिय स्वतन्त्र दलस्य अध्यक्ष रवि लामिछाने अस्या एव व्यवस्थायाः अभ्यन्तरे स्थित्वा अवस्था परिवर्तिष्यते इत्यभासत। असौ अगदत् वर्तमान संविधानस्य व्यवस्थायाश्च अभ्यन्तरे स्थित्वा जनतायाः अवस्थायाः परिवर्तनत्वेन कार्यं विधास्यते। अध्यक्षो लामिछाने सम्प्रति सर्वकारे सहभागिता भविष्यति नवेति विषये निश्चयनं नास्तीति असूचयत्। झापा जनपदस्य तृतीय निर्वाचन क्षेत्रात् राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्ष राजेन्द्र लिङ्गदेन निर्वाचिता सम्भूतोऽस्ति। अध्यक्ष लिङ्गदेन चत्वारिंशत् सहस्राणि षट्शतम् द्वाषष्टिञ्च मतानि प्राप्य विजयम् अलभत। एतस्य निकटतम प्रतिस्पर्धिना लोकतान्त्रिक वाम गठबन्धनस्य पक्षत नेपाली कांग्रेस दलस्य प्रत्याशिना कृष्ण प्रसाद सिटौला विधेन सप्तत्रिंशत् सहस्राणि षडशीत्यधिक शतत्रयञ्च मतानि प्राप्तानीति मुख्य निर्वाचनाधिकृता चन्द्रमणि ज्ञवाली ज्ञापयति। झापा जनपदस्य तृतीय निर्वाचन क्षेत्रात् अध्यक्षस्य लिङ्गदेन इत्यस्य अयं विजय द्वितीयो वर्तते। सुर्खेत जनपदस्य प्रथम निर्वाचन क्षेत्रात प्रतिनिधि सभाया सदस्य पदे सत्ता गठबन्धनस्य पक्षता नेपाली कांग्रेस दलस्य उपसभापते पूर्णबहादुर खड्गा निर्वाचितो वर्तते। खड्गा द्वाचत्वारिंशत् सहस्राणि सप्ताधिक षट्शतं च मतानि प्राप्य विजयम् लब्धवान्। असौ नेकपा एमाले दलस्य ध्रुवबहादुर साइनम् एकादश सहस्राणाम् ऊनविंशत्यधिक षट्शतस्य च मतानाम् अन्तरेण विजयम् अलभत। एवमेव प्रतिनिधि सभाया सदस्य पदे डोल्पा जनपदात् गठबन्धनस्य पक्षता नेकपा एकीकृत समाजवादी दलस्य धनबहादुर बुढा एकादश सहस्राणि पञ्चविंशत्यधिक शतद्वयम् च मतानि प्राप्य चितवन जनपदस्य प्रथम निर्वाचन क्षेत्रात् राष्ट्रिय स्वतन्त्र दलस्य प्रत्याशी हरि ढकाल चतुस्त्रिंशत् सहस्राणि ऊननवत्यधिकैक शतं च मतानि प्राप्य च विजयिनौ संवृतौ स्तः। प्रतिनिधि सभाया निर्वाचने समानुपातिक पक्षस्य विधीयमानाया मतगणनाया प्राप्तस्य पश्चात्तन विवरणस्य अनुसारेण अधुनावधि नेकपा एमाले दलम् अग्रस्थाने वर्तते। नेकपा एमाले दलेन अधुनावधि अष्टौ लक्षाणि सप्तसप्तति सहस्राणि चतुष्पञ्चाशदधिक शतद्वयम् च मतानि प्राप्तानि सन्ति। नेपाली कांग्रेस दलम् अष्टौ लक्षाणि चत्वारिंशत् सहस्राणि द्व्यशीत्यधिक शतञ्च मतानि प्राप्य द्वितीय स्थाने वर्तते। राष्ट्रिय स्वतन्त्र दलम् लक्षत चतुष्टयम् द्वाविंशतिम् सहस्राणि त्र्यशीत्यधिक षट्शतञ्च मतानि लब्ध्वा तृतीय स्थाने अस्ति। नेकपा माओवादी केन्द्रेण लक्षत्रयम् चतुर्नवतिः सहस्राणि षट्चत्वारिंशदधिक शतचतुष्टयम् च मतानि प्राप्तानि वर्तन्ते। नेकपा एमाले नेकपा माओवादी केन्द्रयोः अध्यक्षाभ्याम् प्रतिनिधि सभायाः सदस्यपदे निर्वाचयनम् आलक्ष्य परस्परम् वर्धापनम् अभिव्यज्य सफल कार्यकालाय शुभकामना प्रदत्ता वर्तते। एमाले दलाध्यक्ष केपी शर्मा ओली ह्यो माओवादी दलाध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन सह दूरभाष सम्पर्कम् विदाय प्रतिनिधि सभायाः सदस्यपदे निर्वाचयनम् आलक्ष्य वर्धापनम् अभिव्यनक वर्धापनम् शुभकामनाम् च व्यङ्क्तुम् प्राप्तान् माओवादी केन्द्रस्य नेतृन् कार्यकर्ता अध्यक्षो दाहाल एमाले दलाध्यक्षेण ओलिना दूरभाष सम्पर्केण वर्धापनम् व्यक्तम् इति अभासत। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली निगदति अतपरम् राष्ट्रिय संयुक्त सर्वकार निर्माणस्य अवस्था सृष्टा वर्तते। झापा जनपदस्य पञ्चम निर्वाचन क्षेत्रात् प्रतिनिधि सभायाः सदस्यपदे निर्वाचितः अध्यक्ष ओली एतत् जनपदस्य दमक स्थिते निर्वाचन कार्यालये ह्य प्रमाणपत्र ग्रहण मनु अगदत् निर्वाचनस्य परिणामेन संयुक्त सर्वकारस्य संघटनार्थं राजनीतिक दलानां सक्रियतायाः अवस्था सृष्टास्ति। अध्यक्ष ओली अतर्कयत् निर्वाचनस्य परिणामेन बहुमतस्य सर्वकारस्य संघटनं कठिनं भविष्यति कदाचित् एतादृशे सर्वकारे संगठिते सत्यपि तस्य स्थैर्यं कठिनं स्यत्स्यति इति समाचारः।